इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। संसदीयः कार्यमन्त्री किरेण रिजिजुः समुद्घोषितवान् यत् ऑपरेशन सिन्दूर इति सैन्याभियानान्तर्गतं सप्त सर्वदलीय प्रतिनिधि दलानि शीघ्रमेव विभिन्नैः देशैः सह वार्तां करिष्यन्ति, यत् आतंकवादं विरुध्य भारतस्य सामूहिकं संकल्पं प्रदर्शयति। संचारतन्त्रपटले श्रीरिजिजुः संयुक्तदलानां प्रतिनिधित्वकर्तॄणां सांसदानां प्रतिनिधिमण्डलानां च सूचीं प्रकाशितवान्। सर्वदलीय प्रतिनिधिदलं सर्वप्रकारेषु अभिव्यक्तिषु च भयोत्पादनस्य प्रतिकारार्थं भारतस्य राष्ट्रिय सर्वसम्मतं दृढं च दृष्टिकोणम् उपस्थापयिष्यति। एतानि प्रतिनिधिमण्डलानि भयोत्पादनस्य विरुद्धं भारतस्य शून्य सहिष्णुतायाः दृढं सन्देशं विश्वं प्रति अग्रे नेतुं शक्नुवन्ति। सप्त प्रतिनिधिमण्डलानां नेतृत्वं भाजपादलस्य रविशंकर प्रसादः, वैजयन्त पाण्डा, कांग्रेसदलस्य शशि थरूर, जेडीयू दलस्य संजय कुमार झा, डीएमके दलस्य कनिमोली करुणानिधि, एनसीपी दलस्य सुप्रिया सुलेह, शिवसेना दलस्य श्री एकनाथ सिंधे च करिष्यन्ति। वार्ताहरैः सह संवादक्रमे भाजपेति दलस्य सांसदः रविशंकर प्रसादः अवोचत् यत् उपक्रमोऽयं प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदृष्टिं प्रतिबिम्बयति इति। सः एतदपि न्यगदयत् यत् भारतस्य सामूहिकः संकल्पः संयुक्तरूपेण भयोत्पादनस्य विरुद्धं वर्तते, सममेव विश्वः अस्माकं एकतां दृश्यात्। केन्द्रीयः गृहमन्त्री अमितशाहः ऑपरेशन सिन्दूर इति पाकिस्तानं विरुध्य भारतीय सैन्याभियानं भारतीय सुरक्षानीतौ महत्वपूर्णं पदक्षेपं ख्यापितवान्। गुजरातस्य गांधीनगरे जनसभाम् एकां सम्बोधयन् श्रीशाहः प्रतिपादितवान् यत् ऑपरेशन सिन्दूर इति सैन्याभियानं राष्ट्रिय सुरक्षा प्रतिक्रियायाम् एकम् ऐतिहासिकं परिवर्तनं वर्तते।
जब उरी में हमला हुआ सर्जिकल स्ट्राइक कर एक प्रतीकात्मक जवाब दिया गया, पुलवामा में हमला हुआ एयर स्ट्राइक कर चेतावनी दी गई, मगर ये सुधरे नहीं। पहलगांव में हमला किया, इस बार ऑपरेशन सिंदूर से उनके हेडक्वार्टर्स को नेस्त नाबूद कर।
विदेश व्यापार महानिदेशालयेन बांग्लादेशात् भारते आयातितानां केषाञ्चिद् वस्तूनां आयाते नवजलपोत प्रतिबन्धानां समुद्घोषणा कृता। शासनस्य अधिसूचनानुसारेण केन्द्रीय वाणिज्योद्योग मन्त्रालयेन स्पष्टीकृतं यत् एते प्रतिबन्धाः बांग्लादेशस्य तद्वस्तुषु न प्रवर्तयिष्यन्ते यानि वस्तूनि भारतात् नेपाल भूटानयोः निस्सार्यन्ते। अधिसूचना माध्यमेन प्रसारिताः एते निर्देशाः तत्काल प्रभावेण प्रभावीभूताः। अधिसूचनायां वस्तूनां सूची एका अपि प्रसारिता यत्र प्रतिबन्धाः प्रवर्तन्ते, प्रतिबन्धित वस्तूनि न आयातितानि स्युरिति स्पष्टीकृतम्। भारतीय ऋतुविज्ञान विभागेन पूर्वोत्तर भारते आगामिषु पञ्च षट् दिनेषु झञ्झावात वायु विद्युत द्योतेन सह अतिवृष्टेः अनुमानं प्रकटीकृतम्। ऋतुविज्ञान विभागेन कोंकण गोवा मध्य महाराष्ट्र मराठवाड़ा क्षेत्रेषु आगामिषु चत्वारि पञ्च दिनेषु पश्चिम भारते अपि एतादृशः स्थितेः अनुमानं प्रकटीकृतम्। अन्ते च क्रीडा वार्तासु। आईपीएल इत्येतस्यां क्रिकेट लीग प्रतिस्पर्धायाम् अद्य सार्धत्रिवादने जयपुरस्थे सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स इति दलं पंजाब किंग्स इति दलं विरुध्य क्रीडिष्यते इति वार्ताः।